वागर्ताविवसम्प्रक्तौ वागार्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ येन ॐ येनाक्षरसमान्यायम् अधिगम्यं महेश्वरात् कृष्णं व्याकरणं प्रोक्तम् तस्मै पाणिनये नमः ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः. ओके, नमस्कार भगिनि.
नमस्ते. करोतु.
भवान् भवति कस्यायां कक्षायां पठति? अहं नवमकक्षायां पठामि. अहं संस्कृतकक्षायां पठामि. भवतः ग्रामः किम्? मम ग्रामः टैन्ब्रूक्. कुशलं वा? कथमस्ति भवान्? गृहे सर्वे कुशलानि वा? सर्वं कुशलं. कः विशेषः? का वार्ता? भवता एव वक्तव्यम्. कोऽपि विशेषः? भवान् भवति कुतः आगच्छति? अहं शालतः गृहतः. भवान् भवति कुत्र गच्छति? भवति वा इति पश्यामः. ज्ञातं वा? कथम् आसीत्? अङ्गीकृतं किल? कति अपेक्षितानि? आद्य एव वा? इदानीम् एव वा? अगन्तव्यं भोः. सही है भगिनि? तदर्थं वा?
एकनिमिष भगिनि, एक ऐ वास् जस्ट् क्लीनिङ्ग् दट् फ्री कान्फरेन्स् काल्. अस्तु, कुत्र अस्ति अधुना
भगिनि? इदानीम् एव वा? आगन्तव्यं भोः.
आगन्तव्यम्
ओ आगन्तव्यं भोः. ओके, आगन्तव्यम्. ओके, तदर्थं वा? तत् किमपि मास्तु. न दर्शयते. ओके, समाप्तं वा? कस्मिन् समये? तथापि आवश्यकं न आसीत्. आवश्यकं न आसीत्. तिष्ठ पृच्छतु भोः स्मरति किल तथा किमपि नास्ति कथमस्ति भवान् न विस्मरतु अन्यच्च भगिनि सम्यक् वा तदनन्तरं तवादेव किल तावादेव किल इट् इस् ओन्लि सो मच्
विच् वन् यु आर् आस्किङ्ग्
भगिनि न विस्मरतु पुरतः पुरतः पृष्ठतः डौन् वन् भगिनि न विस्मरतु बिसैड्स् वाट् इस् बिसैड्स्
कुत्र दृष्टवान् वेर् आर् यु
बिसैड्स् भगिनि सो
वेर् आर् यु वाट् तस्य अर्थः कः
बिसैड्स्
बिसैड्स् अन्यच्च
अन्यच्च
टु चार्स् अन्यच्च
अन्यच्च अन्यच्च तदनन्तरम् ओके तावादेव किल महान् सन्तोषः तत् तथा न तस्य कः अर्थः ओके तस्य कः अर्थः आम् आम् भोः भगिनि एकः प्रश्नः अस्ति तस्य कः अर्थः तस्य का अर्थः यूस् कर् सकते कः का
नो अर्थः कीदृशपदम्
ओ अर्थः पुंलिङ्गपदं
कः अर्थः विशेषणविशेष्य न
का आयाति चेत् अर्था
न अर्थः तु अर्थः पदं नास्ति
नास्ति
पुंलिङ्गं पदमेव अत्र
ओके भगिनि सो कः इ यूस् करणे कयं को ओके ओके भगिनि तस्य कः अर्थः ओके आं भोः
or you can say like kim
okay bhagini
kim napumsakali yadi na janami je tadanantaram tu kim kintu kah arthah iti samichana
samyak samichana okay bhagini eva meva aham devalayam karyalayam vipanim gacchami विपणीं मार्केट् ओके किं क्षीरदर्शनं वाट् इस् द मेटर् ओके किं क्षीरत् दर्शनम् ओके भवन्तं कुत्रापि दृष्टवान् भवान् सम्भाषणशिबिरं आगतवान् वा ओके
किं चिराद् चिराद् दर्शनं किं चिराद् युनो यदि किमपि वृद्ध अस्ति वयं प्रणमस्मि न प्रणमामि तदनन्तरं किं कृतवान् कृतवती तत् आशीर्वाद आशीर्वाद इत्युक्ते किं चिरञ्जीव भव
ब्लेसिङ्ग्स्
चिरञ्जीव भव चिरञ्जीव इत्युक्ते किं चिरञ्जीव इत्युक्ते लाङ्ग्
लाङ्ग् लैफ् लाङ्ग्
लैफ् अत्र एव चिरात्
चिरात्
लाङ्ग् चिरात् किं लाङ्ग् टैम् दर्शनं
ओके ओके आफ्टर् लाङ्ग् टैम् ओके किं चिरद् चिरञ्जीव ओके
चिरात् पञ्चमी
चिराद् दर्शनं
चिरात् अस्ति अन्ततु स द भवति दकार आयाति परं तदनन्तरं
हलन्त हलन्त
हलन्त तकार अस्ति चिरात् किन्तु अत्र द दर्शनं द आयाति, मुखे तु द एव तिष्ठति, चिरात् दर्शनम् इति.
वक्तुं चेत् सा आयाति वा?
हा, सा तु समीचीनं, सा चिरात्, किन्तु वाक्ये सन्धि भवत् चिराद, मुखे द आयाति. अलां जशोन्ते एकं सूत्रमपि अस्ति, किन्तु सूत्रं कथम् आयाति इत्युक्ते इट् इस् नेचुरल् टु मेक् देट् अ द सौण्ड् इन् अवर् माौत्.
ओ, किं चिरात् दर्शनं,
पृथक् पृथक् वदामश्चेत् अलग सेपरेट्लि देन् किं चिरात् दर्शनम्. किन्तु वयं कथं
वदामः
किं चिरात् दर्शनम्, एकमेव भवति न?
आं भगिनि,
तदेव. पुनः वदतु ते सर्वे दीर्घवाक्यानि तत्र अहं देवालयं.
ओके ओके भगिनि, अहं देवालयं कार्यालयं विपाणिं गच्छामि. किं चिरदर्शनं विपणिं गच्छामि. किं चिरदर्शनं भवन्तं कुत्र
चिराद् आकारान्त
किं चिराद् दर्शनं चिरात् दर्शनं भवन्तं कुत्रापि दृष्टवान्? भवान् सम्भाषणशिबिरम् आगतवान् वा? तर्हि कुत्र दृष्टवान्? तर्हि तत्रैव दृष्टवान्. ओके, सो ये सब् वाक्ये
भगिनी अवगतं वा सर्वे? भवन्तं कीदृशपदं? भवन्तं कुत्रापि दृष्टवान् इत्युक्ते किं?
भवन्तं कुत्रापि दृष्टवान्,
भवन्तं कीदृशपदं?
भवन्तं भवान् षष्ठी विभक्ति प्रथम,
न न षष्ठी न, भवान्
भवान् भवन्तं द्वितीयविभक्ति एकवचनपदम् अस्ति भगिनि.
लुक अप् शब्दमञ्जर्याम् एकवारं पश्यतु शीघ्रम्.
आं भगिनि,
भवान् भवन्तौ
भवन्तं भवन् एकनिमिष भगिनि
पश्यतु.
भवन्तं द्वितीयविभक्ति एकवचनपदमस्ति भगिनि.
न, द्वितीयविभक्ति एकवचनं, किन्तु प्रथमरूपाणि वदतु एकवारम्.
आं भगिनि, तकारान्तपुंलिङ्गः भवत् शब्दः, प्रथमविभक्ति भवान् भवन्तौ भवन्तः, द्वितीयविभक्ति भवन्तं भवन्तौ भवतः, तृतीय भवता भवद्भ्या भवद्भिः, चतुर्थी भवते भवद्भ्यां भवद्भ्यः, पञ्चमी भवतः भवद्भ्यां भवद्भ्यः, षष्ठी भवतः भवतोः भवतां भवतां द्वे भवतां बहुवचनं षष्ठी अस्ति, भवतं भवन्तम् ओके द्वितीयविभक्ति अस्ति भवन्तम् ओके यस् भगिनि. सप्तमी भवति भवतोः भवत्सु सम्बोधनं हे भवान् हे भवन्तौ हे भवन्तः इति.
उत्तमम् उत्तमम्. अधुना किं दत्तं?
भवन्तं कुत्रापि दृष्टवान्?
कुत्रापि कुत्रापि इत्युक्ते किम् अत्र?
एव्रिवेर् एव्रिवेर् कुत्रापि
कुत्रापि कुत्र इत्युक्ते कुत्र अपि वेर् एवर् इन् अ प्रश्नवाचक कुत्र तु प्रश्न अस्ति.
आं भगिनि, वेरि वेरि यूस्फुल् भगिनि दिस् दिस् थिङ्ग् लैक् वाट् एवर् दिस् व्यवहारिक वाक्यानि
बिकास् यु नो मेनि आफ् द थिङ्ग्स् बट् पुटिङ्ग् इट् टुगेदर् इन् अ यूस्फुल् वे
यस् भगिनि इफ् विल् प्राक्टिस् डैलि सम् सेण्टेन्सस् वी केन् स्पीक् ऐ थिङ्क्
नो इन् द बिगिनिङ्ग् दिस् बुक् ऐ कैण्ड् आफ् मेमरैज् सम् मेनि इयर्स् अगो विदौट् एनि नालेज् ऐ मेमरैज्ड् इट् नौ ऐ फर्गाटन् मोस्ट् आफ़् इट् बट् यु नो इट् हेल्प् मी
यस् भगिनि
तदेव अहं लिङ्क् प्रेषयामि
भगिनि
पठतु भगिनि अधुना अग्रिमं वाक्यं पठतु भवान्
एकनिमिष भगिनि अग्रिमवाक्ये भवान् सम्भाषणशिबिरम् आगतवान् वा सो आप् सम्भाषणशिबिरम् आरये क्या सम्भाषणं मीन्स् कन्वर्सेशन् मीटिङ्ग् बिट्वीन् द पीपल् रैट् भगिनि
You know, Shibiram is considered like the word for workshop. Shibiram is a workshop atra.
Okay, okay, bhagini.
Ityukte kim ekam sthane sarve ayanti api cha kim api pathanti ve kim api na karyam
karuti. Yes, bhagini.
Samskrutam sambhashana ityukte kim
सम्भाषण इत्युक्ते
कन्वर्सेशन्
बिट्वीन् टु पीपल्
तदेव सम्भाषण इत्युक्ते सम्भाषणशिबिरम् इत्युक्ते किं संस्कृतसम्भाषणशिबिरं न
यस् भगिनि
इत्युक्ते किं किमपि दिनानां हौ मेनि अवर् डेस् यु हेव् टु स्पीक् देट् वन् लेङ्ग्वेज् ओन्ली गिव्स् यु प्राक्टिस् न
Yes, Bhagini.
तदेव आगतवान् आगतवान् इत्युक्ते
आगतवान्
कृतवान् पठितवान् लिखितवान्
वर्तमाने अस्ति
न भगिनि न न भूतकालार्थक
ओके आल्रेडि
भूतकालात् कृतवान् दृष्टवान् श्रुतवान्
यस् भगिनि
श्रुतवान् रामः श्रुतवान् राम हर्ड् गीता श्रुतवती
शि हर्ड्
गीता श्रुतवती
भगिनी
पुस्तकं श्रुतवत्
श्रुतवत्
नपुंसकलिङ्ग् अस्ति चेत् पुस्तकं
श्रुतवत्
गीता श्रुतवती इति
पास्ट् टेन्स् मे अगर भूतकाल रहा तो पुंलिङ्ग् के लिए वान् स्त्रीलिङ्ग् के लिए वति और नपुंसकलिङ्ग अस्ति चेत्
वत् वत्
वत् वत् वत्
एकवचने एकवचने
एकवचने हां भगिनि अगर द्विवचने बहुवचने अस्ति चेत् वन्ति श्रुतवान्
न किञ्चित् भिन्न अस्ति अधुना तु अत्र एव तिष्ठतु If you remember just this much for today, it's very good. So for many verbs you can do, na? Likhitavati, patitavati.
Likhitavan,
likhitavan.
Likhitavan, likhitavati,
likhitavat.
Likhitavat.
Likhitavan.
Patitavan, patitavati, patitavat. Patitavat.
कृतवान् कृतवान्
कृतवान् कृतवती कृतवात्
कृतवत्
कृतवत् वत् वा न वत् वा कृतवत् ओके दृष्टवान् दृष्टवती दृष्टवत्
उत्तमम् उत्तमम् उक्तवान्
उक्तवान् उक्तवती उक्तवत्
पीतवान्
पीतवान् पीतवती पीतवत्
तदेव सुन्दरं भगिनि
आं भगिनि ऐ वास् नोयिङ्ग् ओन्ली पुंलिङ्ग स्त्रीलिङ्ग भगिनि टुडे ऐ लर्न् नपुंसकलिङ्गम् आल्सो हौ टु से इन् भूतकाल वत् 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 शब्द आयाति अन्ते
अन्ते वत् वान् वती वत्
वत् वान् वती वत् भगिनि किमपि विशेषशब्द अस्ति वा भगिनि भूतकाले सर्वे नामानि इति शब्दायाति वा
हा इति तु एकं क्रियापदं तु नास्ति किन्तु क्रिया सूचयति
सूचयति
इत्युक्ते किं क्रियापदं तु नास्ति पठितवान् रामः पठितवान् तत्तु क्रियापदं नास्ति किमर्थम् इति संज्ञापदं
भगिनि
कृतवान् किन्तु किमपि कार्यस्य विषये ज्ञानं दत्तं सो इट् इस् एक्चुलि कन्सिडर्ड् लैक् यु केनाट् अस्यूम् दिस् इस् क्रियापदम् इस् नाट्
Yes, Bhagini.
So you cannot make it behave and conjugate like a Kriyapadam. It is its own Pratyaya which gives that. So in Sanskrit, many Pratyayas are used for diversity of language. No? Many, many Pratyayas come that give the same meanings as the verb conjugations give.
Yes, Bhagini.
They give the same meaning. Then why are they existing? Because so many ways to say the same thing, different aspects come, no? Different yes. styles, different, it enriches the language.
Yes, Bhagini.
And actually I used to think if I know all the lakaras, I know the language. No, it's not like that.
Yes.
Because pratyayas are very, very commonly used, Bhagini.
Yes, Bhagini.
So pratyaya, you have to understand them just like that. There's some pratyaya is added here, something is happening. Like drishtavan, it doesn't have a e in the middle. But pathitavan has a e in the middle. Why one has e, one doesn't have e? There are many prakriyas. There are many sutras that help us understand that. Adhuna tu tyajatu tatra.
Bhagini.
But we have to understand that these are very, very commonly used phrases or commonly used, what should I call these? Pratyaya, suffixes. Commonly okay, used suffix only, I'll say. Because that's what they are.
Okay, Bhagini.
So, it's simply I am getting you familiar with this. That's all. Later it will come and when you enter more language classes, all of these will start to make sense to you. Then you'll say, oh, I understand the class now.
Yes, Bhagini.
Once you start understanding class, after that you study grammar.
Sure, Bhagini.
Right now you are understanding the grammar of what you can speak. Hana? That's yes, what we are studying. Very simple grammar we study in class. What you can speak, that we understand. But now this is opening you up to new things.
Yes, Bhagini. Bhagini. Okay. Atra, Kim Shibda. Okay, completed okay Bhagini now shall I read Shishtacharah Bhagini or meeting is over Bhagini that
Sarala Vakyani
third one okay Sarala Vakyani okay Bhagini Tataiva Astu okay Tataiva Astu जानामि भोः ओके आं तत् सत्यं समीचीनसूचना ओके ओ सूचना इस् सजेशन् वा भगिनि
सूचना दीर्घ आसीत्
सूचना
समीचीना इति विशेषणपदम्
ओके समीचीना सूचना
समीचीना समीचीना सूचना
दीर्घ
दीर्घ
समीचीना सूचना सो इट्स दट मीन्स गुड सजेशन ओके ओके किञ्चित् एव किञ्चित् एव ओके किमर्थं तद् न भवति why you are not doing today okay
no not you there is no you kimartham tat becomes tad so tat is that why that not is see bhavati is
yes
become you know to be so why that is not like that why it is not see what I'm saying see try to understand the meaning
yes so this bhavati ityukte able to do
na bhavati is not able bhavati is takara dakara bhavati
takara
ta becomes da so what will you say takara dakara bhavati
तकार दकार भवति
मीन्स इट बिकम्स हो बन जाता है
ओ ता से दा बन गया
हां
सो इसलिए उसको जो इधर से उधर बनना है उसको भवति बोलते हैं
हां बनना है या फिर हो गया वो तो बन चुका हो, बन हो, गया भवति हां भवति दैट इज द डिफरेंस बिटवीन अस्ति एंड भवति
ओ ओके भगिनी अस्ति मीन्स इट इज देयर इट इज
है करके किंतु अत्र भवति भवति मतलब वो बन गया बिकम टू बिकम इज व्हाट इट इज ना व्हाट बिकेम इज ना सी टुडे द ट्री इज लाइक दिस बिकॉज इट बिकेम लाइक दिस ना सो देर इज वेरी सटल डिफरेंस बिटवीन द टू सो यू टू लुक एट इट फ्रॉम दैट पर्सपेक्टिव
यस भगिनी भवतु नाम भवतु नाम इट लीव इट एट दैट नाम भवतु नाम नाम भवतु नाम भगिनी अहं ना
हा नाम nama itukte nama tu na it doesn't mean name
ha ha
simply it means like it in some it doesn't mean it but I have heard this word nama as simply meaning like just
yeah just yeah. Oh just
like you know it doesn't mean like just like this versus like this what is the difference just doesn't have a clear meaning
okay leave it just like that
like bhavatu lot lakar asti bhavatu alone means let it be no
yes
may it be bhavatu kintu
yes,
nama is just like may that just be just be like bhavatu it be like that leave it at that is also one translation it means those kind of meaning
okay bagini
ha
oho tatha va okay evam api asti va okay evam api asti va atakim okay now what okay then okay atakim naiva kila naiva kila
na
oh naiva it becomes naiva
ha na
iva kila
kila
okay
bhava eva actually it is not iva it is eva
na eva
naiva kila ha na eva kila
oh if naiva will divide it na plus eva
eva is like tadeva
tadeva
it make it emphatic make it little bit stronger na eva
yes bagini na
eva
Kila. Kila is like...
Kila, is it right? Is it... No, it's not.
जैसे हिंदी में हम लोग बोलते हैं है ना है ना isn't it?
Yes,
this is Kila.
Yes,
this is Kila. Hai na? Mm-hmm. Yes, in Sanskrit, Kila?
Yes, usually in the schools and all, right? Is it right? Is it right? Like the Kila?
Kila? Kila? Kila?
Okay. Bhavatu. Bhavatu means yes. Bhavatu. Bhavatu
means ho. Aisa hi ho. Hai.
Okay. Agachantu. Okay, come in. Upavishantu.
Yeah, come in, like lot lakar. Agachantu. Gachatu.
Agachantu. Bahuvachanam. Bahuvachana,
lot lakar.
Lot lakar. Upavishantu. Ye bhi bahuvachan hai. Sarvata mastu. Sarvata mastu. Okay. Astu va. Kimartam boho. Praptam kila. Okay, praptam kila. Okay.
Ekavaram puna patatu sa sarve.
Bhagini. Tataiva astu. Janami boho. Aam. Tat satyam. Samichina suchana. Suchana. Kimchit eva. Kimartam tad na bhavati bhavatu nama oho tatava eva mapi astiva ata kim na eva kila bhavatu agachantu upavishantu sarvata mastu Astuva kimartam boho praptam kila
boho ekam sambodhana
madamini
kintu varge vayam tat padam na yojayama ityukte boho bahu informal asti
aham bhagini
मित्रद्वयम् अस्ति चेत् भोः किन्तु वर्गे किञ्चित् वयं न कृतवन्तः
आं भगिनि बिकास् लैक् यस् भगिनि इट्स् इन्फार्मल् बिकास् आफ् दट् दट् मीन्स् सामान्यवाक्यानि सामान्यवाक्यानि प्रयत्नं करोमि
अहं शक्नोमि ऐ केन् डु अहं न शक्नोमि ऐ केनाट् डु न शक्यते एकम् अन्य रूपम् आयाति अत्र
भगिनी ये शक्नोमि के लिए भूतकाल में प्रयत्नं करोमि वा
हा करोतु भगिनि
शक्नुवन्तवान्
शक्नुवन्तवान् ओ यु आर् ट्रैङ्ग् द प्रत्यय
भगिनि दृष्टवान्
शक्तवान् शक्तवान्
एतत् विशेष हो गया क्या
विशेष शक्त वदतु शक्तवान्
शक्तवान् शक्तवती शक्तवत्
तदेव
आं भगिनि ओके न शक्यते भोः तथा न वदतु तत्र कोऽपि सन्देहः नास्ति तद् अहं न ज्ञातवान् ज्ञातवान् ज्ञातवती ज्ञातवत् कदा ददाति
कदा
वाट् का समय समयः अस्ति चेत् कदा प्रश्नवाचकम् उपयोगं करोमि
इत्युक्ते वेन्
वेन् वेन् ओके भगिनि सो यस् एप् इट् लुक् it looks like very easy bagini but while telling we won't get any sentence also while reading oh this like this but while we want to speak
it's very hard that's very why these hard. Sentences no this website if you read every day some sections every day you read it will enter your head
yes bagini kimapi das shabdani janami cheto सम्यक् अस्ति
दशवाक्यानि लघुवाक्यानि एव
भगिनि तथा न वदतु ओके तत्र कोऽपि सन्देहः नास्ति तद् अहं न ज्ञातवान् कदा ददाति अहं कथं वदामि कदा इति ओके ओके तथा भवति वा भवतः समयावकाशः दट् मीन्स् सारि फ्री ओके अवेलेबल्
अवकाश इत्युक्ते
अवकाश मीन्स् अवेलेबिलिटि आफ् टैम् ओके भवतः समयावकाशः अस्ति वा अद्य भवतः कार्यक्रमः कः अरे पादस्य हस्तस्य किम् अभवत् ओके अरे मीन्स् ओ ओके
ओहो
ओहो ओके बहु दिनेभ्यः ते परिचिताः ओके तस्य कियद् धैर्यं भगिनी
धैर्यं तस्य कियत् धैर्यं एकनिमिष धार्ष्ट्यम्
ओके 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 धार्ष्ट्यं
धारकार धार्ष्ट्यं
धार्ष्ट्यम्
ओ
तस्य कियत् धैर्यं धार्ष्ट्यम् ओके सो हौ डेर् यू टु टेल् लैक् दट्
तस्य मतलब् षष्टि तस्य कियत् इस् लैक् अमौण्ट् इत्ना उस्का इत्ना बोलेङ्गे ना उस्का इत्ना क्या बोलेङ्गे इतनी हिम्मत लाइक इन हिंदी विल से नो
या यस बगिनी
उसकी इतनी हिम्मत
हां 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 यस
दैट्स व्हाट ही इज सेइंग सो हिम्मत इज बीइंग यूज्ड हियर लाइक धैर्यम
धैर्यम
कियत् जैसे कति वी स्टडीड कति कति वयम किम कदा कदा योजयाम
कति संख्याः अस्ति चेत् कति
हां किंतु संख्या नास्ति इत्युक्ते
कियत्
कियत् अमौण्ट्
भगिनि यस् सो नौ फार् क्वाण्टिटि वि केन् से कियत् रैट् भगिनि फार् एनि वेजिटेबल्स् आर् एनि फ्रूट्स्
यु केन् से आल्सो कति आल्सो लैक् 2 kilos
But
you can say, for example, I am happy. I mean, you cannot measure that.
Yes, Bhagini. Kiyad. Okay. Whatever it cannot be measurable, for that and all, we can use Kiyad Shabdha.
Haan. Like not measurable in terms of numbers.
Numbers. Yeah. It's like infinity. Kiyad. Okay. Okay. Kiyad means kitna dairi hai.
Dekho, uski kitna uska matlab veer dikha raha hai. Like, kaise?
धैर्यं तु डेर् भगिनि दार्ढ्यं मतलब्
ऐ डोण्ट् नो द पद विभाग आफ् दट् परिचय ऐ डोण्ट् नो भगिनि
नो प्राब्लम् ओके दार्ढ्यं दार्ढ्यम् ओके भवान् न उक्तवान् एव ओके उक्तवान् एव दट् मीन्स् यु डिन्ट्
उक्तवान्
उक्तवान् उक्तवती उक्तवत् अहं किं करोमि अहं न जानामि तथा यथा भवान् इच्छति तथा तथा भवान् इच्छति तथा ओके यथा यथा भवतु चिन्तां न करोतु ओके चिन्तां न करोतु तेन किमपि न सिद्ध्यति तेन किमपि न सिद्ध्यति सः सर्वथा अप्रयोजकः अप्रयोजकः सः सर्वथा अप्रयोजकः
प्रयोजनं किम् इतम् इति एकं किं बहुवारं शृणोमि
प्रयोजनं मीन्स् लाभ्
यूस् यूस् प्रयोजनं किम्
अप्रयोजनं मीन्स् इट्स् नाट् इन् यूस्
नाट् आफ् एनि यूस् नाट् आफ् एनि यूस्
not of any use okay bagini
it you taste so this sentence sah sarvatha matlab everywhere aprayojakah everywhere he is useless
oh okay okay
or everything he is involved with he is useless
okay wherever he goes that is he is not good
or right. in every way sir sarvatha
sarvatha always yes
इन् एव्री वे यूस्लेस् सर्वथा अप्रयोजक
पुनरपि एकवारं प्रयत्नं कुर्मः ओके पुनरपि एकवारं प्रयत्नं कुर्मः मौनमेव उचितं दिस् इस् द वर्ड् वेरि नैस्
मौनमेव उचितम् मौनमेव उचितं
तत्र अहं किमपि न वदामि हियर् ऐ डोण्ट् वाण्ट् टु स्पीक् एनिथिङ्ग्
तत्र देयर् देयर् नाट् हियर् अत्र इत्युक्ते हियर्
देयर् ओके अत्र तत्र कुत्र सर्वत्र तर्हि समीचीनम् ओके एवं चेत् कथम् एवं चेत् कथं हौ टु गेट् आन् आर् इफ् इट् इस् सो एवं चेत् कथम् ओके मां किञ्चित् स्मारयतु ओ स्मारयतु
माम् इत्युक्ते किम्
माम् इत्युक्ते भगिनि अस्मशब्दः माम् षष्टिविभक्ति अस्ति वा भगिनि
न न न मम नाम मम किं मम कीदृशपदं
मम तु षष्टि उत है
मम षष्टि माम् इत्युक्ते
अहं
प्रथमा
द्वितीय माम् वा भगिनि
द्वितीय माम् इत्युक्ते टु मी कर्म माम् ऐ एम् द कर्मपदं टु मी
ओके भगिनि सो अहम् इस् कर्तृपदं माम् इस् कर्मपदम् ओके ओके भगिनि अहं माम् ओके मुज्को मेरे
मुज्को हा मुज्को
ओके भगिनि माम् किञ्चित् स्मारयतु स्मारयतु मीन्स् रिमैण्ड् मी
स्मरति टु योर् सेल्फ़् रिमेम्बर् स्मारयति टु रिमैण्ड् किसि और् से करवाना
ओके ओके
रिमेम्बर् वी टाक्ड् अबौट् इट् लास्ट् टैम्
यस् भगिनि स्मारयतु स्मरितवान् स्मारितवान् आयति वा भगिनि
स्मरितवान्
स्मरितवान् स्मरितवती स्मरितवत् स्मरितवत् ओके ताम् अहं सम्यक् जानामि ओ ऐ नो हिम् ओके
तं
ओके मध्यमपुरुष तं
न मध्यमपुरुष कुत्र भगिनि
मध्यमपुरुष त्वम् एतत् तम्
न पुरुष तु आयाति न अत्र संज्ञापदम्
न भगिनि अहं किञ्चित् कन्फ्यूजन्
तम् इत्युक्ते
तम् इत्युक्ते आप्
न न न न
ऐ
विभक्तिरूपं किं प्रातिपदिकं किम्
अहं विस्मरामि भगिनि
एकवारं पश्यतु भगिनि चिन्ता मास्तु शब्दमञ्जर्यां पश्यतु सर्वनाम
सर्वनामपदं
तं कीदृशपदम् अत्र तद् इति तद् प्रातिपदिकमस्ति चेत् तद्
ओ ओके भगिनि ओ तत् नपुंसकलिङ्ग
नपुंसकलिङ्गं तु तत् एव अपि पुंलिङ्गं
पुंलिङ्गं तु
सः तौ ते
भगिनि तं सः तौ ते
तं तौ तान्
ओके ओके गाटित् भगिनि नौ
इत्युक्ते किं
तम् इत्युक्ते द्वितीयविभक्ति एकवचनपदमस्ति भगिनि
अत्र अत्र वाक्ये तं
तम् इत्युक्ते स्त्रीलिङ्ग होतः भगिनि स्त्रीलिङ्ग
स्त्रीलिङ्गस्ति चेत्
स्त्रीलिङ्गस्य भगिनि द्वितीयविभक्ति पुंलिङ्ग दकारान्तः तद् शब्दवत्
इत्युक्ते कर्मपदम् इत्युक्ते कर्मपदं
न भगिनि भगिनि सोरि प्रथम सः तो कर्तृपदं कर्म तम्
अत्र तम् अहं सम्यक् जानामि कर्तृपदं किं
कर्तृपदं तु अहम्
अहम्
अहं कर्तृपदं तं कर्मपदम् मैं उसको उसको अच्छी तरह जानती हूँ तदानीमेव
तदानीम् इत्युक्ते किम् इदानीम् इत्युक्ते न इदानीम् इत्युक्ते अधुना इत्युक्ते तब्
एकनिमिष भगिनि
इदानीम् इत्युक्ते नौ अधुना नौ
ओके
इदानीम् इदानीं किन्तु तदानीम् इत्युक्ते तब्
तब् तब् ओके दट् मीन्स् भूतकाले आयेगा न भगिनि तदानीं
भूतकाल वा भविष्यत् काल वा तब् एनी टैम् बट् नाट् नौ
ओके ओके अदर् देन् नौ
अदर् देन् नौ तदानीम् इदानीं तु नौ
ओके भगिनि तदानीम् एव तदानीम् एव तदानीम् एव उक्तवान् किल Haven't I told you already? Oh, okay, okay. So on that day, I told like this, it will happen.
Or whatever, something what? I said.
Yes, forgive me.
Kila. That okay. only I said, no. That's how Indians will talk, how? That only I said, no.
Yes, forgive me. If bad thing happens that time, oh, I said on that day like that, it will happen. But you didn't see that. कदा उक्तवान् भोः ओके फर् दट् अगेन् क्वश्चन् कदा उक्तवान्
He says, you never told me.
Yeah, when did you say to me like that? कदा ओके यक्तिमपि भवतु
यत् किमपि यत् किमपि
यत् किमपि भवतु ओके इट् मे हेपन् एनिथिङ्ग् रैट् भगिनि
यत् किमपि किमपि इत्युक्ते जोबि
Jobi. Yat means?
Yat kimapi. See, tat ityukte that. Wo. Wo hoga to. Yat means jobi. Yat means jo.
Sorry.
Kimapi means kuch bhi. Jo kuch bhi.
Jo kuch bhi. Yat kimapi.
Jo kuch bhi. Jo kuch bhi ho. Bhavatu. Ho. यत् किमपि जो कुछ भी भवतु हो जो कुछ भी हो
ओके भगिनि
इत्युक्ते किम् अहं संस्कृतं पठामि यत् किमपि भवतु
हा हा वाट् एवर् हेपन्स् ऐ वोण्ट् स्टडिङ्ग् द संस्कृत ओके
वेदर् ऐ बिकम् पण्डित् वेदर् ऐ बिकम् क्रेज़ी वेदर् हौस् वर्क् इस् डन् यत् किमपि भवतु अहं तु संस्कृतमेव पठामि अधुना
ओके भगिनि ओके सः बहु समीचीनः ओके सः बहु भगिनि रुक्षाः
यदि सः बहु समीचीनः सा वदतु सा बहु
सा बहु समीचीना
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 तत्
बहु समीचित्
समीचीनं
समीचीनं फलं समीचीनं समीचीनमस्ति समीचीनं समीचीनं
वाक्यं समीचीनं शब्दः समीचीनः
आं भगिनि
कन्या समीचीना
भगिनि आं भगिनि सो हियर् इन् इन् संस्कृत ग्रामर् भगिनि इफ् वि वाण्ट् टु फ्रेम् द सेण्टेन्स् वि हाव् टु लुक् बिफोर् द लिङ्ग सो द सूटबल् लिङ्ग वर्ड् ओन्ली वि हाव् टु फिक्स् देर्
या देट् इस् वै ऐ हव् स्पेण्ट् सो मच् टैम् वित् यु
Yes,
Bhagini. Linga, what yes, is the Linga? I won't go forward if you don't know Linga.
I know, Bhagini, very
because
true.
Because I can teach you all this speaking. See, I could have taught all this from the beginning. But yes, you don't understand the importance of getting the Lingas correct.
Yes, Bhagini. But there is no
the habit
use.
Won't be there.
Yes, Bhagini.
Habit won't be there. So first you have to make that habit. Oh, I need to know the Linga. No. See, in this other class I am teaching, one or two Indian people are there and they know the words from their own mother tongue, no?
Yes, Bhagini.
So, like I am saying, Shiva sees the moon, make the sentence. So, he knows in his head that the word is Chandra.
Yes, Bhagini. Shiva Chandra.
Because we all know Chandra. So, then he says, Shiva ha kartra padam pashyati sees. Then Chandra, he says, Chandra. I said, what is Chandra? He says, moon. I said, that I know. What kind of word is it? I said, that I don't look up. I said, you have to look up because how you will make the conjugations otherwise?
Yes, Bhagini. Because of that basic knowledge only, now it will become easy to understand so many sentences.
So it has taken us 1 year to reach page 20.
I know, Bhagini.
Because but now, you can read this. Because you can read this whole book and it makes sense to you. How amazing is that?
Yes, very, very nice, Bhagini. Even though the meanings won't be there also, we can understand bit of it because of that basic things.
Fundamentals, most important. Once
very
that
true,
is down, Bhagini. Now you can soar, you can learn to fly by yourself. See, fundamentals is down. That's why I spent so much, more than 1 year we have been learning. No, page 20 only or whatever.
yes, Bhagini, but we have strong basic, right, Bhagini? That is
your
important.
Fundamentals are strong in this class, that's why.
Yes,
that is see, now you are reading a full like book only and you are understanding.
Yes, Bhagini, very true, Bhagini.
So and I can do that in this class because most all of you are Indian, so the vocabulary is there. You know the basic meaning.
Yes.
Now
yes,
you know how it is applied.
Yes, Bhagini, very true. And we can read small stories and also we can get to know the meaning of that, Bhagini. So because of our basic fundamental thing, whatever you taught us in these ones.
Yeah, very simple I have taught, no? Very simple things only, but they are the ground, they are the basic bhumi of Sanskrit.
yes bhagini, very true bhagini.
Karotu, patatu.
Saha bahu ye shabdah kimapi kinchit klishta jata.
Rukshah.
That means the rough nature.
Rough natured. Rukshah.
Agar soft hai to sunnitah. Bagin? Sahiva, sahim samyakva.
Rukshah. Atra tu again they have made spelling errors. I think the when they printed this, they couldn't print the ksha sound, bhagini.
Bhagini.
Every time ksha needs to be there, they do talu shakara.
Maybe the like
printing, yeah, they couldn't figure out. It's a very old book actually, this one, you know.
Oh, okay.
You can buy it in Samskrit Bharati. Very thin book it is called, but now you have it. It's a very thin book. It's good to have a book. I used to walk with it. Go for a walk with it and just randomly be reading. And I had no knowledge of grammar, bhagini, zero classes. Simply I was reading for the, I thought something will be there, like that. So, daksha atra tu mudrana dosha.
No, bhagini, rukshaha. Rukshaha is our tree also, the meaning, right?
No, that is vrukshaha.
This is rukshaha.
Rukshaha.
Okay, bhagini, now agar for the soft hai to sunnitaha agatava.
Agatavanva. Soft sunnitava.
Aham na janami bhagini, just uha karoti.
na, then you say shilaha.
Oh, shilaha.
Shantaha.
Shantaha. Okay, bhagini.
There is Saha nothing bahu? Like smooth. Smooth means is a result of shanti only, no?
Yes, bhagini, that is true.
Roughness is a result of vrittis only, no?
Yes, bhagini. Yes, bhagini. Okay. Tadvishaye chinta mastu. Okay. Tadvishaye means for that matter.
Vishaye kya vibhakti rupam?
Vishaye saptami vibhakti asti bhagini. Eka vachana padam.
Chinta tu striling akaranta padam. Chinta
mastu.
Ma astu. Astu. Ma ityukte?
Not. No.
Don't.
Don't. Don't. Tataiva iti na niyamaha. Oh, okay. Tataiva iti na niyamaha. Okay.
Tataiva.
Tataiva.
Iva ityukte?
Like.
Iva ityukte like. I eva ityukte emphatic. Strong emphasis. Eva ityukte emphasis. Iva ityukte like. Ityukte kim? Shivaha iva krishnam asti. Like Shiva, Krishna is there, they are same. Ramaha krishna iva asti. Rama is like Krishna only, like
yes,
iva
Magini.
Kintu
yes.
Eva tu tatha eva ityukte tathaiva.
That means strongly we are telling this is that only, then we can use eva.
Otherwise eva simply is like only. So tatha
krishna eva,
Rama. It depends. Tatha eva iti niyamaha.
Bhagini. Okay, bhagini. Kartum shakyam. Kinchit samayaha apekshyate.
Again, mudrana dosha.
Apekshate. Okay, kartum shakyam. Kinchit samayaha apekshatam. Okay, I will do, but I need some time. Okay.
Atmanepadi apekshate.
Apekshate.
Ekarantana. Te ante ayati.
Rambani. एतावत् अपि कृतवान् एतावत् अन्ते ऐ मीन् एतावत् मीन्स् अट् लीस्ट् दिस् वन् रा भगिनि
इट् नाट् तक्
कम् से कम् इट् नाट् तक्
अपि कृतवान् हेस् डन् भूतकालार्थक इतना इतना तक तो किया उसने लाइक दैट
यस भगिनी सो पांच पांच पार्ट पढ़ने से एक पार्ट तो पढ़ लिया
इतना तो किया सी हम लोग का मनुष्य हैज फॉलन सो मच नाउ वी हैव टू एनकरेज ईच अदर लाइक दिस रादर देन हाउ कृष्णा एनकरेजेस अर्जुना टू गो टू द हाईएस्ट हियर वी आर लाइक अरे कम से कम एक सेंटेंस तो लिखो
द्रष्टुम् एव न शक्यते
द्रष्टुम् इति एकम् अन्य प्रत्यय अस्ति द्रष्टुम् मतलब देखना देखने के लिए जो भी चाहिए देखना देखना नहीं हो रहा नहीं कर पा रही लाइक दैट शक्य न शक्यते आत्मनेपदी न शक्नोमि न शक्यते न शक्यते तु मया हियर यू विल नॉट से अहम् दृष्टम् न शक्यते यू विल से मया विथ मी बाय मीन्स पैसिव इत्युक्ते मेरे से
यस भगिनी
मैं नहीं इसे मेरे से देखना नहीं हो रहा
मेरे
मुझसे देखना नहीं हो रहा हाँ यू विल नॉट से मैं नहीं देख पा रही दैट्स अ डिफरेंट दैट्स एक्टिव सेंटेंस
यस भगिनी मेरे से नहीं हो रहा है
हाँ मतलब मुझ द्वारा देखना नहीं हो रहा है
मेरे द्वारा सो तृतीय विभक्ति आता है
तृतीय शक्यते यकार आया थी मध्य शक्यते सो इन दिस काइंड ऑफ कंस्ट्रक्शन यूजुअली व्हेन यू सी अ वर्ब विद अ या इन इट नॉट ऑलवेज देयर इज वन गणा विच ऑलवेज हैज या इन इट बट अदर देन दैट इफ यू सी अ या देन यू कैन आस्क योरसेल्फ वेट अ मिनट इज दिस गोइंग टू बी मेरे द्वारा या किसी के द्वारा या फिर डायरेक्ट एक्टिव है देखो बीच में या आया
यस भगिनी सो द्वारा हो गया तो
पठ्यते पठ्यते मया पठ्यते
मया लिखते
हाँ मया पाठम पठ्यते मया
लिख्यते
लिख्यते मया पाठम पठ्यते मया पाठाः पठ्यन्ते एनी पाठा आर देयर देन इट बिकम्स पठ्यन्ते Although the kartra is me only. So, in this construction, you don't match the kartra padam. You match the karma padam.
Oh, okay, Bhagini.
This is called karmani prayoga. It will come later in your classes. But some of the sentences here, when you go back and read all that you have read again, go home, you know, when you have on your own time, look for this. One or two sentences more have come and gone. I didn't say because there's a lot of things going on. But one more was just now, it just came. And I thought I'll talk about it, then I didn't. But it will come. So, you look for it when you read next time.
Yes. But it's smarayatu.
स्मारयतु तत्र तु गण मतलब चुरादि गण मीन्स् यू वेन् यू मेक् इट् प्रेरणार्थे देन् आल्सो या कम्
सिद्ध्यति भगिनि सिद्ध्यति
हा कुत्र अस्ति सिद्ध्यति
भवतु न तेन किमपि न सिद्ध्यति
हा तेन किमपि न सिद्ध्यति उत्तेन इत्युक्ते तृतीया अस्ति उसके द्वारा कुछ नहीं होगा
हाँ उसके द्वारा कुछ नहीं होगा या आया
he didn't say सह किमपि न सिद्ध्यति तृतीया तेन
यस भगिनी
हाँ दिस इज कॉल्ड इत्युक्ते किं नाम किं कर्मणि प्रयोग
कर्म
साधारणतया तु आरम्भे संस्कृतभाषायाम् अपि च आङ्ग्लभाषायां हिन्दीभाषायां सर्वदा कर्तरिप्रयोग एव वयं कृतवन्तः. इत्युक्ते किं, शुरु मे हम लोग एक्टिव वॉइस पढाते हैं. क्यों क्यों पढाते हैं? क्योंकि हम लोग एक्टिव वॉइस में ही बात करते हैं, विच इज सो सैड एक्चुअली. कर्मणि बट इन लाइक पापा जी वाज सेइंग शुरू में, जब अगर इफ वी हैड गॉन इनटू ओल्ड टाइम्स इन गुरुकुल टाइम्स, कॉन्वर्सेशंस आर हैपनिंग इन कर्मणि ओनली.
And
then Karmani tells you a constant reminder that I am not the doer. The body is the doer. By means of the body I can do this, that and the other. Everything we do by means of body only. No?
Yes, Bhagini.
So that it teaches you from a very young age that the body is just like a car.
Very true, Bhagini.
But now because car is in the garage, we say car is different, but I am my body. No, I am not my body. After all, when you hit your arm, you don't say I hit me, you say I hit my arm, no?
Yes, Bhagini.
So that distance is there from beginning. So Sanskrit has a very, very large, it's very large literature using Karmani. Into, because we are now in this Kala Yuga where we are, everything is about ego, that only makes sense to us.
That becomes karta.
That is kartari prayoga. So yeah. Because we are living in this Kali Yuga, it makes easier to understand a new language with kartari prayoga. That's why we are teaching. But had you been in a original, no, some lifetimes ago, you would have immediately gone to karmani.
Yes,
Bhagini. Also, you would have learned kartari, but then you understand, oh, kartari is actually deceiving.
Yes. All kartari prayoga is like nasha.
It's nasha. It's deceiving. It's not. Yes. It's taking you away from truth. It's a papa actually.
Yes.
So punya is karmani only.
Karmani. So we'll think before we'll act.
At least we will say, oh wait, by means of this body I'm doing something. I better be careful.
Yes, Bhagini. Very true. तत्रैव कुत्रापि स्यूत
स्यात् इत्युक्ते किं? स्यात् इत्युक्ते आसीत्, पास्ट टेन्स् यूजुअलि है लैक् दट्.
आसीत् के लिए स्यात्.
हा बट् इस् नाट् नेसेसरी भूतकालार्थक, इस् लैक् है, लैक् अस्ति ओन्लि. किन्तु हेस् बीन् देर् फार् सम् टैम्, विल् बि देर् फार् सम् टैम्, एसा है.
ओके.
स्यात्
asti
I can say, no, for one second also something happens, at that second I can say asti.
Yes,
syat is what does this dictionary say? Syat. See, perchance, it may be, perhaps, no, it's more than that.
Yeah, they are given, I think, it may be somewhere there.
Yeah, Sasti, perhaps. There is a maybe in it, but it's also like a sense of, like in our Karapatras by Swarup Mahodaya, he will be writing a sutra and he'll say, Syat. I mean, there's not a maybe. There's not a maybe sutra. There is some sense of see here, look at this sentence in the, are you on screen sharing? Look at screen sharing.
Wait Bhagini, I will open it.
Ha. Tarhi samichinam eva syat.
Bhagini.
तर्हि समीचीनमेव स्यात्. That only is good.
Oh, okay.
See, they translate in that case, it should be good. Yeah. So, that only is good, no?
That only is
see,
good.
See, that is not like, oh, maybe, it's not how to say, no, in English, this concept is not there. So, it's very hard to translate, actually.
Yes, Bhagini.
Look at this. Kim etat syat. Look at this sentence.
What does it mean?
It is not like maybe. There's no maybe in that.
Yes, Bhagini. Okay.
Or look at the one above it. Kim etat syat. What does it amount to? Look at this. Kim etat syat. What is the meaning of this? It is not like, look at this one. Kim etat syat. How now? How did it come? How did this come to be?
Yes, Bhagini.
So this sense of existence is there in Syat.
Yes, Bhagini. So depending upon the Vakya. Vakya. Okay, Bhagini.
Patatu, Bhagini.
Okay, Bhagini. Aham drushtu.
Tathaiva kutrapi Syat.
यथार्थं वदामि. ओके, यथार्थं मीन्स् ट्रूत्. एवं भवन्तुं भवितुम् अर्हति.
सो भवितुम् एकम् अन्य प्रश्नम् अत्र द्रष्टुं भवितुं
शक्नुम्
निदिष्टुं शक्नुम्
भवितुं
लेखितुं पठितुं. सो दिस् तुम् इत्युक्ते द प्रश्नवाचक वुड् बि किमर्थं
किमर्थं
फार् वाट् पर्पस् ओ पठितुं पढने के लिए. ओके ओके. देखने के लिए द्रष्टुं देखने के लिए नहीं हो रहा है मुझसे.
ओके ओके.
द्रष्टुमेव न शक्यते. मुझसे देखने के लिए नहीं हो रहा है. देखने को नहीं हो रहा है. In Hindi it becomes ko, but actually the prashnavachaka is not kisko nahi ho raha, it's kimartham.
Reason, cause.
Reason, cause. So atra evam bhavitum arhati. Evam, like this only, exactly like this. Arhati is possible.
Yes,
please. Bhavitum arhati, is it? एवं भवितुम् अर्हति, लैक् दिस् ओन्ली इस् ओके. भवितुम् इस् टु बी न भू.
यस् भगिनि.
अस्तु अग्रिमम् अन्य पठामि वा? 10-10 टैम् तु अस्ति. टेल् मी, यू वांट् टु रीड् मोर् ओर् यू वांट् टु बी डन्? रीडिङ्ग् यू डिड्.
यस् भगिनि. किमपि भगिनी,
यु डिसैड्. इफ् यु हेव् टैम् ऐ विल् रीड् वित् यु.
वी केन् रीड् अप् टु भगिनी
एण्ड् आफ् दिस् वन्.
एण्ड् आफ् दिस् अण्ड् विल् एक एतत् अपि दृष्टवान्. ओके भगिनि.
एवं भवितुम् अर्हति
कदाचित् एवमपि स्यात्. अहं तवादपि
तावत् अपि तावत्
एतावत्
लुक् एतावत् एतावत् इत्युक्ते
तप्तक् ओके.
तावत् सि
तावत् ओ उत तत्
उत्ना जस्ट् लैक् सः एषः तावत् एतावत्.
ओके भगिनि. तावत् एतावत्. ओके भगिनि. अहं तावद् अपि न जानामि वा.
उतना भी मुझको नहीं मालूम क्या.
ओके ओके हाँ ओके. तत्र गत्वा किं करोति. ओके पुनः आगच्छतु आगच्छन्तु. ओके मम किमपि क्लेशः नास्ति. ओके एतद् कष्टं न भोः आनीतवान् वा. ओके यु आर् ओके
आनीतवान् लाना
लाना
आनीतवान् वा ले आये क्या.
ओ आलरेडी हैपेंड पास्ट टेंस.
आनीतवान् भूतकालार्थक
आनीतवान् आनीतवती आनीतम् आनीता आनीतवत् आनीतवत्
आनीतवान्
ओके भवतः कृते कः उक्तवान् किञ्चिदनन्तरं
भवतः कृते
अपि द्वारा आपकी द्वारा
द्वारा तु नास्ति कृते भवतः विभक्तिरूपं किं
भवतः प्रथमविभक्ति
षष्टी अत्र
षष्टी विभक्ति भवान् भवत् भवत्
भवतः माने आपका या आपका कृते. So, कृते मीन्स् आपके लिए भवतः कृते मीन्स् इन् हिन्दी इट् बिकम्स् आपके लिए बट् इन् संस्कृत इट् यूसेस् षष्टी. इत्युक्ते मम कृते पुस्तकं समीचीनं मेरे लिए ये पुस्तक अच्छी है. भवत्याः कृते तु न समीचीनम् आपके लिए ठीक नहीं है मम कृते समीचीनम् इति.
ओके भगिनी
कृते कृते यूज इज षष्ठी ओनली.
ओके
कः उक्तवान् आपके लिए उसने क्या बोला. एक्चुअली दिस ट्रांसलेशन इज रॉन्ग हु टोल्ड यू दिस नो एक्चुअली व्हाट ही इज सेइंग इज आपके लिए उसने क्या बोला.
ओके
और या क्या क्या किसने क्या बोला कह उक्तवान् किसने क्या किसने वो बोला आपके लिए किसने वो बोला. Who told you this?
Yes, हाँ. किञ्चिद् अनन्तरम् आगच्छेत्.
अनदर न्यू एंडिंग आगच्छेत् भवेत्
भवेत्
सो गच्छेत्
स्मरेत्
स्मरेत् पठेत्
लिखेत्
लिखेत् न्यू एंडिंग व्हाई व्हाट डज इट मीन दिस इज लाइक विधि लिंग.
व्हाट भगिनी
विधि लिंग डिफरेंट लकार अस्ति.
ओ ओके विधि लिंग
तस्य नाम किं विधि लिंग अपि लोट् प्रार्थनार्थक आज्ञा अपि प्रार्थना. किन्तु भवेत् मीन्स् तथास्तु इत्युक्ते किं वैसा ही हो मैं प्रार्थना करता हूँ वैसा ही हो. भवेत् अपि समीचीनं तत्र अन्यरूपमस्ति.
आगच्छेत् मीन्स् ऐ एम होपिंग यू विल कम hoping is get cheat
is not like it may happen no wrong as actually a prarthana agya like that.
Okay bagini
thodi der baad wo aaye
prarthana. Okay
thodi der baad kinchid anantaram wo aaye agache ekavachana roopam agache.
Yes bagini ekavachanam asti. प्रायः तथा न स्यात्.
नौ कम्स् प्रोबेब्लि प्रायः मोस्ट्लि और् लैक् यूजुवलि और् लैक् मे बी Mm. Or like sometimes this kind of question comes with prayah.
Yes, Bhagini.
Maybe he says by and large. Mm. It can also mean that. There's also one meaning. Prayah na syat. Maybe, perhaps not. Like that.
Mm-hmm. Yes, Bhagini. Mm. Chinta mastu. चिन्ता मास्तु ओके टुमारो यू केन् गिव् लैक् देट् ओके अहं पुनः सूचयामि ओके ऐ गिव् वन्स् अगेन् Yeah, reminder. Suchayami means reminder. Okay.
Like you do to me every time.
Are you bagini? Yeah. Okay. Yeah. Adya asit va. Okay. Avashyam.
Adya chukte today.
Today. Adya yaha swaha. Avashyam agachami. Okay, I'll come for sure. Okay.
Mm.
Nagarajah astiva. Okay. Kimartam tat evam abhavat.
Mm.
Abhavat already happened in the past.
Mm. Mm. Abhavat.
Abhavat. Okay.
Bhutavan. Bhutavati.
Bhutavat. Bhavat. Bhava. Oh, bhavat.
Api bhavat, bhutavat. Same.
Bhavat, bhuta. Okay. Okay. Tatra asit va. Okay. You are there? Okay. Tatra, okay. Kimapi uktavan va. Okay. Kutaha anitavan. Kaha se lekar aa raha hai. Anyat karyam kimapi nasti. Okay, don't have other work. Mama vachanam. शृणोतु एतत् सत्यं किल तद् अहम् अपि जानामि तावद् आवश्यकं वा न तावद् आवश्यकं न
तावत् अगेन् तावत् इस् देयर् सी
यस् भगिनि तावत् तावत् भवतः का हानिः
भवतः षष्टि
भवतः षष्टि भगिनी का हानिः मतलब् लास्ट् भगिनी
लास् हा लास् और् किमपि अप् किमपि असमीचीनं हानिः
ओके ओके
भवतः तुमारी
नष्ट जैसे
नष्ट जैसे हा हानि
किमर्थम् एतावान् विलम्बः
एतावान् इत्ना
एतावान्
दिस्मच् किमर्थम् एतावान् विलम्बः
एतावान् इत्युक्ते इट्स् सो मच् आफ् टैम् सो
वै आर् यू लैक् विलम्बः एतावान् किमर्थं विलम्बः आल्सो इस् ओके एतावान् विलम्बः
ओके
दिस्मच्
यथेष्टम् अस्ति
अस्ति
यथेष्टं मीन्स् प्लेण्टि न भगिनि सो मच् यथेष्टम्
ऐ डोण्ट् थिङ्क् आफ़् इट् एस् प्लेण्टि बट्
लाट् वी केन् से
यथेष्टम् ऐ विल् लुक् अप्
यथेष्टम् अस्ति
यथेष्ट agreeable desired ha huh? That's how I think of yatheshta I don't know why it says plenty according to your wish huh? According to wish that means enough for you
okay
agreeable to you
yes,
it doesn't necessarily mean a lot like I only need one book enough then yatheshtam is enough for one book it doesn't mean 500 books are there so plenty
maybe
is kind of,
not different
different.
Yeah yes bhavatah abhiprayah kaha asya kim karanam स्वयमेव करोति वा, यु डिड् युवर् सेल्फ् लैक् दट्, तत् न रोचते, उक्तुम् एव वदति सः, उक्तम् एव वदति सः. दट् मीन्स् वाट् भगिनि? उक्तुम् मीन्स् स्पीकिङ्ग्, वदति मीन्स्
सः वदति. सः वदति,
सः वदति,
सः वदति. उक्तम् एव, उक्तम् मीन्स् दट् दट् वास् सेड्.
ओ, अर्लियर् वाट् एवर् शी सेड् द सेम् थिङ्ग् शी इस् रिपीटिङ्ग्.
दट् एव, दट् ओन्ली सः वदति. उक्तम् मीन्स् दट् दट् इस् सेड्.
ओ, ओके ओके, वाट् एवर् शी सेड् दट् इस् शी इस् रिपीटिङ्ग्.
Whoever said whatever, that only he is repeating.
Okay, buddy. Anyata bahu kastam. Kimartam purvam na uktavan. Spashtam na janami. Nishrayaha nasti. Nishchaya. Nishchayaha nasti. I'm not sure. Okay. Krut. Kutra.
No, not I am not sure. Nishchayaha nasti, there is not I. This is
Nishchaya means
Prathama Purusha. Prathama Purusha. Asti tu Prathama Purusha is not Nishchayaha nasmi na. Is not I am not sure. That means there is no surety for this.
Yes, Bhagini. Nishchaya anishchaya. Nishchaya means sure. Na asti means I'm not sure. Not sure.
Is right. Not there.
Not there. Yeah, is not there.
It's not there.
It's not there. Kutra asit bhavan. Where were you there? Yeah. Kutra asit. Bhitihi mastu. Okay. Bhitihi means it's kind of fear. Yeah.
Fear.
Bayasya karanam nasti. Na asti.
Shashti, bhayasya. भयका कारण नहीं है.
षष्ठी विभक्ति. तदहं बहु इच्छामि.
तत् अहम् इच्छामि. किम् इच्छामि? तत् इच्छामि.
तत् इच्छामि.
कियत् इच्छामि? बहु इच्छामि.
बहु इच्छामि भगिनि. कियत् लज्जास्पदम्. So how shame it is, okay. Okay, kiyat lajjaspadam. Saha mama doshaha na. Okay. Mama tu akshepaha nasti. Akshepaha means blaming, right, Bhagini?
Blaming or like having some problem.
Okay.
Mere liye, mama tu
सः शीघ्रकोपि. शीघ्रकोपि
इत्युक्ते
कोपि कोपि
शीघ्रकोपि शीघ्रकोपि इत्युक्ते कुप्यते, जो गुस्सा करता है, गुस्सा करना कुप्यते.
So that is my that is my weakness, Bhagini.
Maybe aise hi ho gayi thi beech mein. Not my nature growing up, not at all. Beech mein I had become last I think 3-4 saal se just like contemplating that. It has gone now.
Yeah, Bhagini, that is my weakness, Bhagini. Every time I will say to myself that I have to reduce that somehow, but I don't know.
Saying won't do it. You have to contemplate it, like what is going on?
I am becoming like that?
Who is not I am becoming? Why the mind is disturbed?
Is
there another path for the mind? What can the mind do? You have to ask that question.
Yes,
once you start asking that kind of contemplation, what other path is there, then solutions come. Otherwise you simply say no, I won't do this, then the brain has no option. No, it will go by habit only.
Very true, Bhagini.
So that kind of contemplation करोतु भगिनी, अहं कृतवती एव अनुभवामि.
I have to do, Bhagini. I have to do, really. Haan, I don't know too. Why suddenly it comes, Bhagini. If, if my son doesn't do anything, immediately I'll be...
So, but you have to listen to, like, why, what is their option, what other can I do. The, what also is important, because your son will learn this from you otherwise.
Yes,
he will learn the Shigra Kupya. The Bhava.
Yeah, I don't.
You have to remove it, then he will learn that also.
Yes, but in very true, Bani. Okay.
Shigra Kopi, Saha Shigra Kopi.
Saha Shigra Kopi.
My iti manye, Sa Shigra Kopi ni. Iti manye, itu na janami.
Sa, okay, Bagini. तीव्रं मा परिगणयतु. परि ओके ओके दट् मीन्स् डोण्ट् टेक् इट् अदर्वैस् पर्सनलि
नो पर्सनलि तु न लैक् जस्ट् ऐ एम् जस्ट् सेयिङ्ग् डोण्ट् बिकम् सो इन्वाल्व्ड्
ओके भगिनि आगतः एष वाराकः
अवराकः
एष अवराकः वाट् डस् इट् मीन्
आगतः एष अवराकः इत्युक्ते अवराकः इधर् रुका हुआ आगतः आकर इधर
ओके
जो आया आगतः जो भी आया आगतः इज अ विशेषण फॉर समबडी सः आगतः हू सः आगतः सः द वन हु केम हिम
ओके
सः रुका क्या कैंपियर उसको कैंपियर बना दिया लाइक
कोविड की भगिनी कोविड की वजह से यही हो गया ना
यही है
अवराकः युक्ते समये आगतवान् युक्ते समये आगतवान् ओके यु केम् अट् रैट् टैम्
युक्ते समये जोयिनिङ्ग् टैम् joining okay. means is always a good time to join
yes bhagini bahu bahu jalpati boho jalpati
jalpanam jalpanam is like many words coming out is jalpanam too much talking like today's everybody is like that
talkative nature
talkative that maunam to very hard for us because we are used to talking
maunam uchitam maunam uchitam
yeah so okay jalpati is the opposite of that
okay bagini
jalpati
esha kevalam kim vadanti okay kim vadanti Okay. What are you saying, right, Bhagini? Yesha kevalam kim vadanti. Oh, why you are telling simply
no,
like that?
No, no, it's like whatever, kuch bhi.
Kuch bhi. Gossip diya hai idhar.
Gossip means what? Kuch bhi. Kuch bhi. Yesha, she, see, very interesting, they put a she. केवलं किं वदन्ति किं वदन्ति इत्युक्ते केवलं किं वदन्ति इत्युक्ते सिम्प्लि टाक् देर् इस् नो वेल्यू इन् इट् सिम्प्लि वर्ड्स् आर् देर् देर् इस् नो वेल्यू इन् देट् सिम्प्लि सौण्ड् इस् कमिङ्ग्
एवमेव आगतवान्
किमपि न भवति
सारी भगिनि किमपि न भवति किमपि न भवति नथिङ्ग् हेपेन् ओके
नो हेपेन्स्
हेपेन्स्
वर्तमान
एवमेव आगतवान् एवमेव आगतवान्.
लैक् दिस् ओन्लि हि केम्, लैक् दिस् ओन्लि हि केम्.
ओ ओके ओके, एवमेव लैक् दिस्,
जस्ट् लैक् दिस् ओन्लि हि केम्. Just came to call on you. When like this only, means like this only, just like that he came.
Vina karanam kimartam
gantavyam.
Gantavyam.
So gantavyam api like drishtavyam, karaniyam, karna hai.
Yeah.
Gantavyam jana hai.
श्लोक है न भगिनी, ब्रह्मैव तेन गन्तव्यम्.
ब्रह्मैव तेन गन्तव्यम् मतलब जाना है हम लोग को, वेदर वी नो इट और नॉट, उधर ही जाना है.
बिना कारणम किमर्थम गन्तव्यम्.
इट इज नॉट नेसेसरी, इट इज द ओनली वे.
गन्तव्यम्,
तो बिना कारणम, बिना कारण के गंतव्यम जाना है. किमर्थम जाना है, वाई हैव टू गो.
ओके ओके, सो वी डोंट नो रीजन, वी आर गोइंग सिंपली,
सिंपली लाइक गॉसिप ओनली.
भवतः वचनम सत्यम. ओके, मम वचनम कः शृणोति.
मदर
मम वचनं कः शृणोति तदा तद् न स्फुरितं.
स्फुरितं मीन्स् इट् डिड् नाट् अकर् टु मी, लैक् इमीडियट्लि डिडन्ट् वो कट् तदा इत्युक्ते तब, तब वो तद न, वो नहीं एकदम से आया मन में, एकदम से वो बात नहीं आई.
Somebody
is saying something or you saw something and you know what to do, but उस वक्त वो मन में आया ही नहीं.
रिमेम्बर नहीं है मतलब,
नहीं रिमेम्बर नहीं,
याद,
याद इट इज रिलेटेड टू मेमोरी, बट इट इज लाइक दैट स्पर्ट ऑफ दैट मोमेंट. लाइक फॉर एग्जाम्पल वेन समबडी इज लाइक इन माई संस्कृत क्लासेज, इमीडिएटली आई गेट अ लॉट ऑफ स्फुरतम इन माई माइंड, मीन्स दैट सो मच इज कमिंग, लाइक सो मच जॉय इज कमिंग.
यस भगिनी,
लाइक इट्स स्प्राउटिंग फोर्थ. किन्तु अत्र नथिङ्ग् स्प्राउटेड्, न स्फुरितम्.
न स्फुरितम्,
दट्स् हौ यु गेट् द वर्ड् स्प्राउट् आल्सो इन् इङ्ग्लिश्. ऐडियास्, वाट् हेपन्स् टु ऐडियास् इन् द मैण्ड्, दे स्प्राउट् नो, सडन्लि दे कम्.
यस् भगिनी,
बीजा इस् देर्, सो यु केन् काल् देट् अ मेमोरी बीजा और् वट् एवर् यु केन् काल् इट् अप् टु यु, बट् सडन्लि सी बीजा इस् बीन् देर् फार् 30 इयर्स्.
Yeah, that thought is there, suddenly, but suddenly that idea came. Thought is there.
Thought may also not be there. Bija is there. Bija is there. Suddenly it grows.
Oh, okay, okay.
See, that's what we call an idea. Now, what is an idea?
Yes. Yes,
idea is suddenly something grows in the mind. It doesn't grow from nothing. Ideas don't come from nothing. For example, you have been watching a show, you met somebody, then 3-4 days later, suddenly some idea comes. The bija was kind of watered by the people you met, somehow it got the nutrients it needed, and suddenly when it will, see, you can put seeds in the ground, and you can water, you can give sun, but when exactly 100% can you predict they will come? No.
No, again.
No, they will come when they are ready.
Yes,
if they are ready, when they are ready, only then they will come. Ideas are like that in the mind.
Yes, Bhagini, very true.
So this sprouting is the spuritam. Tada, that time, tad na spuritam, that didn't sprout in my mind. Like that.
Okay, okay. Okay. Kimartam tavati chinta. तावती किमर्थं मीन्स् रीज़न्, चिन्ता मीन्स् वरि, तावती मीन्स् वाट् भगिनि,
न इट् न तावत्,
ओके, यावत् तावत्,
यावत् तावत्, चिन्ता तु स्त्रीलिङ्गं पदं, सो तावती चिन्ता इत्युक्ते विशेषणपदम्.
विशेषण, ओके, तावती तावती मीन्स इतना क्यों चिंता कर रहे हो, क्या क्या कारण है, इतना चिंता करने का कारण क्या है, या भवतः किं कष्टम् आसीत्,
अस्ति
अस्ति सॉरी अस्ति भगिनी, भवतः किं कष्टम् अस्ति चे एवं न भवितव्यम् आसीत्, व्हाट इज दैट मीन भगिनी,
छि छि छि
ओ ओके ओके
और आल्सो वी विल डू ना लाइक दिस, वी विल डू दिस
yes, Bhagini.
This kind of sounds we make, no? Like that sound is there.
Evam
evam na bhavitavyam karaniyam gantavyam. See that?
Oh, okay, okay.
Drashtavyam. Dekhna hai. Bhavitavyam hona hai. Aisa nahi hona hai. Oho.
Aisa
nahi hona hai. Oho. Aisa nahi hona hai.
ओके ओके बगिन,
इंग्लिश में शुड नॉट हैव हैपेंड तो एक बार बोल के खत्म हो गया, बट ऐसा नहीं होना है हैज अ लिंगरिंग फीलिंग, नो कैसे ऐसे कैसे, हाँ देयर इज अ समथिंग लिंगरिंग इन द माइंड,
या यस बगिन, दैट भावा अलग है,
भावा इज देयर, दिस इंग्लिश ट्रांसलेशन दैट भावा इज मिसिंग, नॉट हैव हैपेंड मींस मूव ऑन, ओके फाइन हो गया फिनिश, नो इट्स नॉट हो गया, इट इज अफेक्टिंग यू.
Yes, Bhagini. Yes, yes. Anyata na chintayatu. Okay. Okay. Don't take it otherwise. Don't mistake me. Yeah.
Don't take it otherwise. Correct.
Yeah, yeah.
Anyata. Other way, na chintayatu. Don't think like that.
Yes, Bhagini.
Uttamam. So, very nice, huh?
Yes, samaya. Bhavat Bhagini, aapke liye to.
Na. Chinta mastu. So, what I want you to do maybe for homework, ekvaram puna pathatu.
Haan, Bhagini.
Api, etasya vishaye kimapi...
Prashna tu...
प्रश्नतु वदतु वदतु कृपया, किन्तु वाट्सप् मध्ये अपि किमपि प्रेषयतु एतत् एतस्य विषये, अद्य किं कुर्मः वयं, किमर्थम् अत्र अत्र कोऽपि नास्ति अत्र न
सर्वे अस्ति भगिनि, ये सम्भाषणं नास्ति,
हा हा सम्भाषणं हा न, अद्य वर्गे तु किमपि अन्य नास्ति न,
वर्गे
वर्गे तदनन्तरं वाट्सप् मध्ये एकवारं किमपि प्रेषयतु,
अवश्यम्
एतस्य विषये प्रेषयतु भवती,
आवश्यकं यस् भगिनि,
लिङ्क् आल्सो प्रेषयतु कृपया भगिनि,
लिङ्क् एकनिमिष भगिनि अहं चेक् करोमि एकनिमिष, बेटर् ऐ हाव्
चेट् मध्ये अस्ति, तत्र चेट् मध्ये अस्ति, पुनः स्वीकरोतु, चेट् मध्ये पश्यतु भगिनि,
चेट् मध्ये अस्ति भगिनि, अहं लिङ्क् को मे कैसा ये
बुकमार्क करोतु भगिनि,
ओके बुकमार्क किया तो यस भगिनि, एक निमिष अहम्
यू सिंपली बुकमार्क इट देन यू पुट इट इन योर व्हाट्सएप,
यस भगिनि, यस भगिनि, आई हैव डन, ओके वदामि भगिनि, ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते, ॐ शान्ति शान्ति शान्तिः, हरिः ओम्। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः, हरिः ॐ तत्सत्।
ॐ सर्वं कृष्णार्पणमस्तु। हरिः ॐ। धन्यवादः भगिनि।
धन्यवादः भगिनि। नमस्कारः भगिनि।
नमस्कारः।